गणेशाय नमः। ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगदः पितरौ वन्दे पार्वतीपरमेश्वरौ। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलम् अचलं सर्वदि साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
उत्तमं भगिनी, धन्यवादः धन्यवादः। अस्तु, अद्य किं कुर्मः? पञ्चपञ्चाशत् वा समयपुटे अभ्यासपुस्तके कुत्र अस्ति वयम्?
आं भगिनि, पञ्चपञ्चाशत्।
पञ्चाशत्, अस्तु, तत्र पठतु दीक्षिका भगिनी, पठतु।
आं भगिनि, गत आगामि, गत आगामि, गत मासे, दिने, सप्ताहे, वर्षे, गत इत्युक्ते मतलब गति से है क्या, चलने से, जाने से? गत गम धातु से निकला है क्या?
किंतु सुधा भगिनी जानाति वा?
ना भगिनी। हाँ,
गम धातु तह आर्ध धातु का त प्रत्यय, क्त प्रत्यय, यथा बुद्ध अपि त प्रत्यय एव। इत्युक्ते धातु गम् योगः क्त प्रत्यय अस्ति चेत् गतभूतकालार्थक कृदन्तपदम् अस्ति। इत्युक्ते गत इत्युक्ते गतसप्ताहे वयं किं कुर्मः इति, गतसप्ताहे अहं किम् उक्तवती, अवगतम्? गतसप्ताहे इत्युक्ते
पिछले हप्ते।
तदेव भगिनि।
लिङ्गभेदम् अस्ति
गतसप्ताहे लिङ्गभेद कथं वदनीयं तत्र इत्युक्ते, एकनिमेष अहम् एक वदामि भवत्याः कृते। अस्तु, यथा पठ अस्ति चेत् इडागमचिन्तनम् अपि आयाति भगिनि तत्र। इडागम जानाति वा? इडागम इत्युक्ते किम्?
इडागम
इकार आयाति,
मध्ये इकार आयाति, किमर्थम् आयाति? एक इडागम एक विषय अस्ति, एक कार्यम् अस्ति, तत् भूत्वा मध्ये यथा पठितवान्, पठ धातुतः पठित् कथं भवति, मध्ये इडागमः। सो श्लोकः पठितः, गीता पठिता, पदं पठितम् इत्युक्ते लिङ्गभेदः अपि अस्ति तत्र. पठधातुतः कथं वदनीयं? पठितः पुंलिङ्गम् अस्ति चेत्, पठिता स्त्रीलिङ्गम् अस्ति चेत्, पठितम् अस्ति चेत्, पदम् अस्ति चेत् पठितम्. किन्तु अत्र कथं योजनीयं? किञ्चित् सरलम् अत्र. अत्र तु गत इत्युक्ते केवल गत एव इत्युक्ते अत्र तु किमपि लिङ्गविषये एव नास्ति अत्र. किमर्थं शब्दकल्पद्रुमा मध्ये एकवारं पश्यतु, गत किं दत्तम्? गतं दत्तं त्रिषु लिङ्गेषु. गच्छति जानाति यातीति वा इति कर्तरि क्ताप्रत्यय. पश्यति वा सर्वे शब्दकल्पद्रुमे मध्ये पश्यतु, गत इति एकं ताप्रत्यय अस्ति. किन्तु अत्र सरलरूपम् एव दत्तम् इत्युक्ते गत एव दत्तं. गतमासे यथा अहं वारं वारम् उक्तवती, गतसप्ताहे वयं किं कृतवन्तः? गतमासे इत्युक्ते भूतकालार्थक एव. अत्र तु सरलमेव.
यदा अहं लेखिष्यामि एकमेव पदम् अस्ति वा गतसप्ताहे इति? एकमेव पदम् अस्ति वा?
एकम् एकं नास्ति भगिनि, गतसप्ताहे. अपि च यदि वाक्यं वदति चेत् कर्तरिप्रयोग अस्ति, कर्मणि प्रयोग अस्ति अत्र. प्रयोगः किं? कर्मणि इत्युक्ते तृतीया सह इत्युक्ते मया गीता पठिता, मया श्लोकं पठितं, मया पदं पठितम्, मया न श्लोकः, श्लोकः तु पुंलिङ्गः अस्ति, क्षम्यतां, मया श्लोकः पठितः, मया ग्रन्थः पठितः, मया गीता पठिता, मया पदं पठितम् इत्युक्ते कर्मणि प्रयोग एव समीचीनं तत्र सा प्रत्यय विषये. कर्मणि प्रयोग इत्युक्ते किं सुधा भगिनी?
कर्मणि प्रयोग इत्युक्ते पासिव वाय्स्.
अनुवादं करोति, करोतु. मया गीता पठिता इत्युक्ते?
मया गीता पठिता, गीता मेरे द्वारा पठन हुआ.
पढ़ी गई.
पढ़ी गई.
पठन हुआ, उत्तम. मेरे द्वारा गीता का पठन हुआ, मेरे द्वारा श्लोक पढ़ा गया, मया तृतीय योजनेन. सा प्रत्यय सर्वदा तृतीय एव कर्मणि प्रयोग एव समीचीनं तत्र इति शैली अस्ति. सो अत्र तु बहु सरल उपयोग दत्तमेव इति इति पठतु. दीक्षिका भगिनी, गत इत्युक्ते भूतकालार्थक. अधुना पठतु भगिनी, वाक्यं पठतु, एकमेकं वाक्यं.
निर्वाचनम् आसीत्. सो गतमासे निर्वाचनम् आसीत्.
इत्युक्ते किम्?
गतमासे मम गृहे अतिथिः आसीत्। हा, दिस् ऐ नो, गतमासे मेरे घर में अतिथि आए थे। लास्ट मंथ सम गेस्ट केम टू माय हाउस, मेरे घर आगत्य। निर्वाचनम अहम न जानामि।
पापा जी जानाति वा?
किम निर्वाचनम? लाइक इलेक्शन, यू नो,
इलेक्शन एव।
यू वोट फॉर समबडी या यू हैव सिलेक्टेड।
Oh, specific word about.
Nirvachanam. Nirvachanam.
मतलब निर्वाचनम मतलब क्या? वोटिंग हुई।
हाँ,
क्या बोले?
इलेक्शन,
वोट डाले।
हमने बोला
जैसे गत मासे निर्वाचनम आसीत, मतलब पिछले महीने वो चुनाव थे, ऐसा बोलेंगे।
चुनाव थे इति तो समीचीनम्, चुनाव हुआ, चुनाव हुआ। आसीत एकवचनम्। गतमासे निर्वाचनम् आसीत। अग्रिमं वाक्यं पठतु दीक्षिका भगिनी। गतदिने
मम गृहे अतिथिः आसीत।
आसीत, उत्तमम्।
आसीत,
हा। अग्रिमं पठतु पापाजी, पठतु। गत सप्ताहे
पेज 55
गत सप्ताहे
गतमासे निर्वाचनम् आसीत्, आगामी वर्षे मम मित्रम्
आगमिष्यति। गत सप्ताहे पापाजी, तृतीय वाक्यम्।
गत सप्ताहे मम गृहे अतिथिः आसीत्।
गत सप्ताहे मम गृहे अतिथिः आसीत्। अग्रिमं वाक्यमपि पठतु पापाजी।
गतवर्षे मम गृहे
न आसीत्, उत्तमं। तद् अपि समीचीनम्, उत्तमम्। सुधा भगिनी अग्रिमं पठतु।
आगामि, आगामि भविष्यत् कालार्थक।
भविष्यत् कालार्थक।
आगामि वर्षे, आगामि मासे, आगामि सप्ताहे, आगामि पर्वदिने, पर्वदिने मम मित्रम् आगमिष्यति। पर्वदिनम् इत्युक्ते
किं भगिनि?
पर्वदिनं, पर्वदिने,
पर्वदिने। वर्षे, मासे, सप्ताहे, पर्व, पर्व इत्युक्ते किमपि उत्साह वा, किमपि उत्सव, उत्सव अस्ति चेत् पर्व, पर्वदिनं न पापाजी?
राम, राम जन्म है, जन्माष्टमी है, ये पर्वदिन है।
पर्वदिन है,
इत्युक्ते फेस्टिवल,
फेस्टिवल अस्ति चेत् पर्व एव। आगामि, आगामि, आगामि इत्युक्ते भविष्यत्कालपदमस्ति। आगामि अत्र किं भवति? एकम् अन्य प्रत्यय अस्ति, णिन्, णिन् प्रत्यय आयाति। तत् प्रत्ययस्य विषये अहं किमपि न जानामि, किन्तु आ योगः गम् योगः णिन् इति अस्ति चेत् आगामि, आगामि। किन्तु शब्दकल्पद्रुमा मध्ये दीर्घ ई अन्ते अस्ति, किं भेदः कथम् अस्ति इति तु अहं न अवगतम्। किन्तु आगामी वर्षे हा वाक्यं वदतु भगिनी.
आगामी वर्षे मम मित्रम् आगमिष्यति.
इत्युक्ते
मै फ्रेण्ड् विल् कम् नेक्स्ट् इयर्.
आगमिष्यति इति पदस्य परिचय वदतु.
आगमिष्यति इति लुट् लकार प्रथमपुरुष एकवचनम् अस्ति.
उत्तमम् उत्तमम्. अग्रिमं वाक्यमपि पठतु.
आगामि मासे मम मित्रम् आगमिष्यति.
मम मित्रम् आगमिष्यति. आगमिष्यति इत्युक्ते सर्वाणि रूपाणि वदतु लुट्.
सर्वाणि रूपाणि भवति.
हा इत्युक्ते आगामी मासे मम मित्रम् आगमिष्यति. द्विवचनम् अस्ति चेत् आगामी मासे.
आगामी मासे मम मित्रे
आगमिष्यतः.
मम मित्रे आगमिष्यतः. आगामि वर्षे मम मित्राणि आगमिष्यन्ति.
आगमिष्यन्ति. उत्तमम् उत्तमम्. अग्रिमं वाक्यं दीक्षिका भगिनी पठतु. आगामि.
आं भगिनि. आगामि मासे मम मित्रम् आगमिष्यति. आगामि मासे मम मित्रे आगमिष्यतः. आगामि मासे मम मित्राणि आगमिष्यन्ति.
अग्रिमं वाक्यमपि पठतु.
आगामि सप्ताहे मम मित्रम् आगमिष्यति.
किमपि अन्यवाक्यं वदतु स्वस्यैः.
आगामि सप्ताहे अहं संस्कृतं पठिष्यामि.
संस्कृतं पठिष्यामि. आगामि सप्ताहे
अहं संस्कृतं पठिष्यामि. द्विवचनं. आगामि सप्ताहे अहम् आवां संस्कृतं पठिष्यावः.
बहुवचनम्.
आगामि सप्ताहे वयं संस्कृतं पठिष्यामः.
उत्तमं. पठिष्यामः.
आमः.
तदेव वाक्यं सुधा भगिनी मध्यमपुरुष अस्ति चेत् वदतु त्रीणि रूपाणि.
मध्यमपुरुष अस्ति चेत् आगामि इति
आगामि योजयित्वा.
त्वम् आगामि वर्षे
त्वं कुत्र गमिष्यति गमिष्यसि.
त्वं कुत्र गमिष्यसि. आगामि मासे गमिष्यसि. आगामि मासे युवां युवां कुत्र गमिष्यतः
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 महाप्राण अस्ति अत्र
आम् आम् आगामिसप्ताहे यूयं कुत्र गमिष्यत
गमिष्यत उत्तमं गमिष्यत इत्युक्ते लिट् रूपाणि अपि च लिट् लिट् रूपाणां केषाम् अन्य एकं लकारस्य समानतया अस्ति
लट् लट् रूपमेव यकार अस्ति मध्ये
यथा लट् चलति तथा लिट्टे अपि चलति समान एव भवन्ति ते रूपाणि किन्तु किञ्चित् मध्ये स्य एकम् एकः प्रत्ययः अस्ति स्य स्य किञ्चित् सन्धि भूत्वा श्य भवति अत्र गमिष्यति स्य प्रत्यय आयाति स्य कुत्र आयाति लृट् लकारे आयाति एक सूत्र अस्ति एकं सूत्रमस्ति तत्र तत्र यतासि लुट् लुटोः इति एकं सूत्रमस्ति तेन मध्ये स्य आयाति सन्धि भूत्वा श्य भवति रूपाणि तु साधारणेव वयं तु जानीमः एव सर्वाणि रूपाणि वदतु दीपशिखा भगिनी किं गतमासे एकं नूतनवाक्यं रचतु भगिनि
गतमासे गतमासे वृष्टिः
न भवति
अच्छा बारिश नहीं हुई
गतमासे न भवति अधुना न अभवत् धन्यवाद पापाजी मम दोषः वृष्टिः न अभवत् अधुना तदेव वाक्यं भविष्यत्कालरूपं वदतु भगिनि
अच्छा हा आं भगिनि हा आगामिमासे वृष्टिः आगामिमासे वृष्टिः न अभवत् तो पास्ट टेंस हुआ तो मतलब नहीं होगी तो न न न न हमको फ्यूचर टेंस चाहिए ना फ्यूचर टेंस हाँ भविष्य न न भविष्यति
न
भविष्यति
उत्तमम् उत्तमम् पापाजी एकं नूतनवाक्यं किमपि वाक्यं वदतु गत योजयित्वा
गतवर्षे मम गृहे केनापि अतिथिः न आसीत्
गत पुनः वदतु बाबाजी किञ्चित् न्यूनं ध्वनिः अस्ति
गतवर्षे किमपि
अस्माकं गृहे गतवर्षे अस्माकं
गृहे गतवर्षे अतिथिः न आसीत्
किमपि अतिथिः न अगच्छत् अगच्छत् उत्तमं न अगच्छत् तदेव वाक्यं भविष्यत्कालरूपं पर वदतु पापजी परिवर्तनं कृत्वा वदतु
आगामिवर्षे
अस्माकं गृहे
अस्माकं गृहे आगमिष्यन्ति
अतिथिः आगमिष्यति अपि च बहुवचनं अस्ति चेत्
आगमिष्यन्ति
साहाय्यं करोतु अतिथि सर्वाणि रूपाणि वदतु अतिथिः
अतिथि अतिथि
एकवचन पुनः वदतु
मतिवत्न हा तो अतिथि अतिथिः अतिथी मति मतिः मति मतयः अत् अतिथि मतयः होता है तो आखी मात अथ अतिथि अतिथयः अथि अतिथयः
तिथि भगिनी थी न तिथि प्रथम तु अल्पप्राण तदनन्तरं महाप्राण इत्युक्ते
हा तो अति ओ सॉरी हमने उसको अत पहले हाँ तो अतिथय ओके आई रिवर्स्ड इट अतिथय
बहुवचनम अस्ति चेत् पुनः एकवारं वदतु वाक्यं आगामी वर्षे अस्माकं गृहे बहुवचनम् अस्ति चेत् पापाजी
आगामी वर्षे
अस्माकं गृहे
प्राणि आगमिष्यन्ति
मम मित्राणि आगमिष्यन्ति उत्तमम् तदेव वाक्यम् अतिथिः इति पदं योजयतु दीपिका भगिनी वदतु तदेव वाक्यम्
आगामि सप्ताहे अस्माकं गृहे अतिथय आगमिष्यन्ति
आगमिष्यन्ति उत्तमम् आगमिष्यन्ति उत्तमं सुधा भगिनी किमपि वाक्यं रचयतु
आं भगिनि गतवर्षे वयं भारतदेशं न गतवन्तः
वयं न गतवन्तः आगामिवर्षे
आगामिवर्षे वयं भारतदेशं गमिष्यन्ति
गमिष्यन्ति इति अस्माकम् आशा इति अस्माकम् आशा उत्तमम् उत्तमम् इत्युक्ते गत अपि आगामि किञ्चित् अवगतं वा तस्य विषये
आं भगिनि
गतवर्षे वयं भारतदेशे न वाट् डिड् सुधा भगिनी से न
गतवर्षे वयं भारतदेशं न गतवन्तः
अच्छा देशं न गतवन्तः अच्छा मतलब कहीं गए नहीं देशं
भारतदेशं
बोल भारतदेशं
देशे किमर्थं देश गत अच्छा वदतु भगिनी किमर्थं द्वितीयविभक्तिकर्मपदं तत्र समीचीनं वदतु
हम भारत देश को नहीं गए लाइक ऐसे
अच्छा दे डिडंट वो हिंदुस्तान नहीं आए
हाँ
इसलिए वो ऐसा बोल रही है ना भारत देशम न गतवंतः तह गतवंत क्या
गतवंतः
गतवन्तः अच्छा गतवन्तः
तव तु प्रत्यय अस्ति
तव हा तव तु प्रत्यय गतवन्तः
भगिनी सुधा भगिनी किमर्थं कर्मपदं तत्र समीचीनं वदतु वाक्ये
गतवन्तः इति गम् धातुतः आयाति गम् धातु सकर्मक अस्ति
सकर्मकधातु अस्ति पापाजि एवं कर्मपदं स्वीकरोति भारतदेशे अपि समीचीनमेव इत्युक्ते देशं प्राप्नोमि अहं भारतदेशं प्राप्नोमि अपि समीचीनं संस्कृतभाषायाम् इत्युक्ते प्राप्नोमि इत्युक्ते अहं तत्र अस्मि किन्तु अधुना तु न अस्मि इत्युक्ते अधुना अहं भारतदेशं न प्राप्नोमि इति अपि संस्कृतभाषायां समीचीनमेव हा किञ्चित् इत्युक्ते हिन्दीभाषायां वयं तु इति ईदृशरूप इति ईदृशप्रयोगं न कृतवन्तः किन्तु संस्कृतभाषायां साधु एव इति मन्ये पपजे अस्तु अन्य कोऽपि वाक्यं रचयतु पपजे इत्युक्ते गत वा आगामी योजयित्वा किमपि सर्वे चिन्तयन्तु इति विषये
गतवर्षे आगामिवर्षे च मम मित्रं मम गृहे आसीत्
पुनः वदतु
गतवर्षे च गतवर्षे आगामिवर्षे च मम गृहे अतिथिः
अधुना तु इत्युक्ते भूत अपि च भविष्यत् एकमेव वाक्ये अस्ति चेत् कथं वदनीयं चिन्तयतु मम गृहे अतिथयः तु सन्ति एव इत्युक्ते गतदिने अपि सन्ति आसीत् आगामिदिने अपि भविष्यति इत्युक्ते वर्तमानसमीचीनं वा तत्र कथं वदनीयम् इत्युक्ते वाक्यद्वयं समीचीनं तत्र द्वयम् अस्ति चेत् वदतु वाक्यद्वयम् अस्ति चेत् गतवर्षे गतवर्षे मम गृहे आम्रफलं किं वदतु कोऽपि वदतु पूरयतु दीक्षिका भगिनी पूरयतु गतवर्षे
मम गृहे आम्रफलम् आम्रफलं पतति
पतति इत्युक्ते बहुवचनमस्ति चेत्
बहुवचनं गतवर्षे मम गृहे आम्रफले द्विवचनफले द्विवचनफलं फले आम्रफले पततः पतति पतति पततः पतन्ति पततः गतवर्षे मम गृहे आम्रफलानि पतन्ति
उत्तमं पतन्ति उत्तमम् अस्तु सुधा भगिनी भवत्याः प्रश्न उत्तममेव अहं किञ्चित् अधुना एव अन्वेषणं करोमि प्रश्न तु समीचीनम् इत्युक्ते गत वा आगामि वा पृथक् पृथक् न लेखनीयम् इति अहम् अधुना एव पश्यामि भगिनि
आं भगिनि अधः वाक्यानि सन्ति ते सर्वे एकमेव पदम् अस्ति
अत्र तु अस्ति किन्तु पृथक् पृथक् लेखनीयम् इति तु असाधु अस्ति एव इति अस्तु सुन्दरं धन्यवादः भगिनि तस्य कृते उत्तमम् इत्युक्ते दीक्षिका भगिनी अवगतं वा इत्युक्ते गतमासे पदम् एकमेव
गतमासे पदम् एकं मतलब् एक पद है ये
एकमेव
अलग अलग नहीं लिखते
पृथक् पृथक् न लेखनीयं संस्कृतभाषायां
ओ एग्जाम्पल में ऑल्सो उन्होंने साथ ही लिखा है गत मासे आगामी वर्षे एक पदम
आगामी किंतु किंचित भेद अस्ति तस्य कृते किं करणीयम् अहं किंचित न जानामि इत्युक्ते सुधा भगिनी कल्पद्रुमध्ये पश्यतु भगिनी आगामि तत्र दीर्घ ई अस्ति समीचीनं दीर्घ ई वा किमर्थं दीर्घ दत्तं तत्र आङ् योगः गम् योगः णिन् किन्तु आगामी मम अध्यापिका अपि दीर्घ ई एव उक्तवती सर्वदा आगामी किन्तु किमर्थम् अस्माकं पुस्तके ह्रस्वदत्तं न जानामि किञ्चित् अहम् अन्वेषणं कृत्वा वदामि
शब्दकल्पद्रुम अधः भो यजमानः यजमान आगामि इति ह्रस्व एव
किन्तु तत्र सन्धि कृत्वा भगिनि
सन्धि
आगामिन्या मास्यायां यक्ष्यामि पापाजी दीक्षिका भगिनी अहं स्क्रीन् शेरिङ्ग् मध्ये इति दर्शयामि किञ्चित् पापाजी पठतु
ओ उसमें आपके टैबलेट में नहीं टैबलेट में स्क्रीन में कुछ आया है देखिए आया हाँ उसको पढ़िए
इति पदम इति पदम जानाति वा इति पदं पापाजी
आने वाली अमावस्या को
पृथक् पृथक् करोतु आगामी
आगमिन्याम् अमावस्याम्
अमावस्याम् इत्युक्ते आगामिन्याम् सप्तमी
अमावस्यायाम्
सप्तमी सुधा भगिनी
भगिनी
आगामिन्याम् अमावस्यायाम् उत्तमं श्री पापाजी इस् ब्रिलियण्ट् आगामिन्याम् उत्तमं पापाजी आगामिन्याम् इत्युक्ते आगामिन् इति प्रातिपदिकम् अस्ति इति मन्ये भगिनी इन् इन् इत्युक्ते नकारान्त पदम् अस्ति प्रातिपदिकं यथा गुणिन् गुणिन् अस्ति चेत् नकारान्तपदम् अस्ति प्रातिपदिकम् अस्ति चेत् प्रथमविभक्ति एकवचनरूपं गुणी गुणी इत्युक्ते रामः गुणी गुणी रामः आगच्छति इत्युक्ते नकारान्तपदमस्ति गुणिन् अत्रापि आगामिन् अस्ति अत्र तु आगामिन्याम् आगामिन्याम् अपि च अमावास्यायाम् अमावास्यायाम् उत्तमम् उत्तमं पापाजी धन्यवादः अस्तु अस्तु किञ्चित् अन्य किमपि वाक्यं रचयतु दीक्षिका भगिनी गत अपि आगामि इति योजयित्वा
गतसप्ताहे अहं प्रतिदिनं संस्कृतं क्लास् रेकार्डिङ्ग् शृणोमि
शृणोमि तु लट् अस्ति लङ् वदतु
ओ सोरि सोरि हा हा गत् ओ हा सोरि हा शृणोमि तु लट् अच्छा हा लङ् हा लङ् 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 होयेगा शृणोमि
श्रु
श्रु श्रुधत्
पश्यतु एकवारम् अस्तु स्क्रीन् शेरिङ्ग् मध्ये अहं प्रेषयामि अस्तु श्रु
अलग् अलगेगा उसमें
हा भगिनी पश्यतु भगिनी स्क्रीन् स्क्रीन् मध्ये पश्यतु श्रु एकं धातु अस्ति एकः धातु वादिगणे परस्मैपदी सकर्मक श्रवणे इति समी अधुना लट् अस्ति शृणोति किन्तु लङ् कथं वदनीयम् एकवारं सर्वाणि रूपाणि वदतु भगिनि
अशृणोत्
न अशृणोत्
अशृणोत् अशृणुताम् अशृणुवन्
अशृण्वन्
अशृण्वन् अशृण्वन् अशृणोः अशृणोतम् अशृणोत अशृणोवम् अशृणवम् अशृणवम् अशृणुव अशृणो अशृणुव अश्रु
इति अशृणुव इति
अशृण्व
उत्तमं
शृण्व किञ्चित् किञ्चित् मुश्किल् जाति अशृणुम् अशृणुम् अशृण्णम्
अशृण्म
अशृण्म हा अशृण्म अशृणोत् अशृणुताम् अशृण्वन् अशृणोः अशृणुतम् अशृणुत
अशृणु
अशृण्व
अधुना भवत्याः वाक्यं स्वीकृत्य सर्वाणि रूपाणि वदतु परिवर्तनं कृत्वा इत्युक्ते वदतु गतसप्ताहे भगिनी
गतसप्ताहे दीपा गतसप्ताहे दीपा भगिनी प्रतिदिनं संस्कृतं क्लास रिकॉर्डिंग
क्लास कीदृश पदं भगिनी
कक्षा न
वदतु वाक्यं समीचीनं भवेत्
गतसप्ताहे दीपा भगिनी प्रतिदिनं कक्षा की रिकॉर्डिंग कक्षायां
कथं अस्ति पदं
कक्षा कक्षा माला वो अस्ति चेत्
माला तु अस्ति किन्तु कक्षा नास्ति भगिनि पश्यतु
ओहो अच्छा कक्षा ओके ओके कक्षा होता है ओ कक्षा
वदतु अधुना
गतसप्ताहे दीपा भगिनी प्रतिदिनं संस्कृतं कक्षा षष्टि लगेगी ना तो कक्षायाः रिकॉर्डिंग वो कहाँ गया श्रुण्वन्ती वाला हाँ कक्षायाः रिकॉर्डिंग अशृणोत् रिकॉर्डिंग्स न जानामि
जानाति एव
जानाति ओ रिकॉर्डिंग्स का संस्कृत
उदा भगिनी
ध्वनि मुद्रणम्
जानाति एव
अच्छा अच्छा ध्वनि मुद्रणम् ओके हाँ ध्वनि मुद्रणम् हाँ शृणोति हाँ ध्वनि मुद्रणम् शृणोति
शृणोमि
अच्छा शृणोमि हाँ 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 तो ध्वनि मुद्रणम् ध्वनि मुद्रणम् मुद्रणम् तो ध्वनि मुद्रणम् अव्यय पदम् है इधर अव्यय पदम् अस्ति
पश्यतु अत्र कीदृश पदम् मुद्रणम् पश्यतु
मुद्रण
नास्ति भगिनि अत्र कीदृशपदम्
मुद्रणपदम्
अस्ति मुद्रण
मुद्रण नपुंसकलिङ्गम् एवं
नपुंसकलिङ्गम् अस्ति चेत् मुद्रणं मुद्रणे
मुद्राणि अच्छा
वदतु भवत्याः वाक्यम्
आं भगिनि मुद्रणम् ओके तो ध्वनिमुद्रणम् अशृणोत्
अशृणोत् उत्तमम्
उत्तमम्
इत्युक्ते
गतसप्ताहे प्रतिदिनं
संस्कृतध्वनिमुद्रणानि
अच्छा
एकमेव शृणोति वा
एकम् एकम् एकं प्रतिदिनम् अशृणो शृणु अशृणवम्
किन्तु वारं वारम् एकमेव शृणोति वा
नो वारं वारम् एकं नै नेक्स्ट् नेक्स्ट्
वदनीयम् इत्युक्ते गतसप्ताहे दीक्षिका भगिनी संस्कृतध्वनिमुद्रणानि प्रतिदिनं प्रतिदिनं किं करोति
ध्वनिमुद्रणानि प्रतिदिनम् अशृण्वन्
अशृणोत् किमर्थं दीक्षिका भगिनी कर्तृपदमस्ति
अच्छा अच्छा अशृणोत् ओके ओके अच्छा अशृणोत् ओके तो वो ध्वनि मुद्राणि अशृणोत् ओके
मुद्रणानि
मुद्रणानि
तदेव वाक्यं भगिनी द्विवचनम् अस्ति चेत् वदतु
तदेव वाक्यं भगिनी
वदतु
दीक्षिका भगिनी गतसप्ताहे प्रतिदिनं प्रतिदिनं ध्वनिमुद्रणे श्रुतवती
अपि च अशृणुताम्
अशृणुताम्
इत्युक्ते कर्तृपदं द्विवचनम् अस्ति चेत् कथं वदनीयम्
दीक्षिका भगि
तु त्यजतु भगिन्यौ
भगिन्यौ गतसप्ताहे प्रतिदिनं ध्वनिमुद्रणे अशृणुताम्
गतसप्ताहे ध्वनिमुद्रणानि अशृणुताम् कौ अशृणुताम् भगिन्यौ अशृणुताम् किञ्चित् विशिष्टरूपाणि अस्ति श्रुधातुतः अतः वयं किञ्चित् अभ्यासं कुर्मः अधुना दीक्षिका भगिनी बहुवचनरूपम् अस्ति चेत् वदतु तदेव
आं भगिनि गतसप्ताहे दीपा भगिनी
त्यजतु भगिनी बहुवचनम् अस्ति चेत्
ओ सोरि सोरि हा गतसप्ताहे दीपा
त्यजतु भगिनी दीपा त्यजतु अधुना केवल
भगिनी ओके ओके हा तो भगिनी भगिनी लता भगिनी भगिने भगिन लता लते लता भगिन्याः भगिनी ओके नदी नदी नद्यौ नद्याः भगिनी ओके मतिवत् नी भगिनी तो बड़ी ई होता है ना भगिनी में
नदीवत अस्ति चेत्
अच्छा नदीवत ओके ओके हम छोटी मात्रा लगा रहे हैं ना इसलिए गलत हो रहा है ओके नदीवत नदी नद्यौ नद्यः नद्यः भगिन्यः ओके हाँ भगिन्यः गत सप्ताहे भगिन्यः प्रतिदिनं ध्वनिमुद्रणानि अशृण्वन्
उत्तमम् अशृण्वन्
अशृण्वन्
मध्यमपुरुष एकवचनरूपं पापजी वदतु तदेव वाक्यं गतसप्ताहे इति अस्ति चेत् किं
गतसप्ताहे
किञ्चित् उच्चैः वदतु पापजी कृपया
गतसप्ताहे
त्वं
गतसप्ताहे त्वं
संस्कृतसमीकरणानि
गतसप्ताहे त्वं किम् अशृणोः
किम् अशृणोः दीक्षिका भगिनी वदतु किमपि
किम् अशृणोः गतसप्ताहे ओके के गतसप्ताहे अहं गतसप्ताहे अहं प्रतिदिनं संस्कृतं ध्वनि मुद्रणानि पुटसंख्या एकं टु पुटसंख्या एकं टु पुटसंख्या टेन् दश
दशपर्यन्तं
पुटसंख्या एक 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 आरम्भ
प्रथमं पुटसंख्या आरब्धतः
प्रथम पुटसंख्या आरब्धतः
शृणोतु भगिनि दशमं पुटसंख्या पर्यन्तं
दशमं पुटसंख्या पर्यन्तं पर्यन्तम् अशृण्वम्
अशृण्वम् उत्तमम्
अशृण्वम्
उत्तमम् उत्तमपुरुष एकवचन उत्तमपुरुष बहुवचनरूपं वदतु सुधा भगिनी
उत्तमपुरुष बहुवचनरूपं गतसप्ताहे गतसप्ताहे
वयं
प्रतिदिनं गतसप्ताहे वयं पुटसंख्या एकम् आरब्धतः दशम पुटं पर्यन्तं अशृणुम
अपि च अशृण्म
अशृण्म
पुनः वदतु वाक्यं
गतसप्ताहे अहं गतसप्ताहे वयं एक पुटसंख्या एकम् आरभ्य दशमं पर्यन्तं दशमं पर्यन्तं अशृण्म
अशृण्म अपि च
अशृणुम
अशृणुम अशृणुम अस्तु मध्यमपुरुष बहुवचनरूपं वदतु किमपि अन्यवाक्यं वदतु गतवर्षे
गतसप्ताहे प्रतिदिनं गतसप्ताहे प्रतिदिनं यूयं भगवद्गीतायाः सम्भाषणम् अशृणुत
सम्भाषणम्
अशृणुत
अशृणुत उत्तमम् अशृणुत उत्तमम् अस्तु गत अपि च आगामि आगामि इत्युक्ते पृथक् पृथक् न लेखनीयम् एकमेव पदम् अस्ति चेत् गत तु भूतकालार्थक आगामि तु भविष्यत्कालार्थक पदद्वये अस्ति पदद्वयम् अस्ति गत अपि आगामि अस्तु गृहपाठरूपेण किञ्चित् पञ्चवाक्यानि लिखतु लिखन्तु सर्वे किमपि धातुं योजयित्वा किमपि वाक्यं कोऽपि प्रश्नः अस्ति तत्र तस्य विषये
सुधा भगिनी विल् यू रिपीट् युवर् सेण्टेन्स्
भाषायां वदतु पुनः वदतु
हा पुनः वदतु सुधा भगिनी वाक्यं पुनः वदतु
आं भगिनि गतसप्ताहे यूयं प्रतिदिनं भगवद्गीतायाः सम्भाषणम् अशृणुत
अवगतं दीक्षिका भगिनी अर्थः कः वदतु हिन्दीभाषायां किम् अस्ति वा दीक्षिका भगिनी
ओके हा पिछले सप्ताह प्रतिदिनं रोज तुम सब लोगों ने भगवद गीता के पाठ का संभाषणम मतलब उसकी जो व्याख्या होगी ना संभाषणम सुना
उत्तम तदेव अशृणुत यूयम अशृणुत युवाम अशृणुतम युवाम अशृणुतम यूयम अशृणुत त्वम अशृणोः किञ्चित् भिन्न जाता तत्र अशृणोः यदि सामान्यतया गम् अस्ति चेत् रूपाणि तु सरलमेव इत्युक्ते लङ् अस्ति चेत्
अगच्छत् अगच्छताम् अगच्छ
अगच्छः किन्तु ओहो आयाति तत्र किञ्चित् विशिष्टरूपम् अस्ति श्रू धातुतः ओहो आयाति किमर्थम् आयाति अत्र पश्यतु गुरु अस्ति चेत् अपि किञ्चित् विशिष्टरूपाणि सन्ति तत्र एव इत्युक्ते पञ्चमी षष्टिरूपं रूपाणि पश्यतु गुरोः गुरु अस्ति चेत् गुरोः अस्ति उकारान्त अस्ति चेत् ओहो आयाति एकवचनरूपम्
गुरोः पञ्चमी षष्ठी गुरोः 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 गुरुभ्यां गुरुभ्यः गुरोः गुर्योः गुरुणां गुरौ गुर्योः गुरुषु
गुरुषु अपि च ईकारान्त हरिवत् अस्ति चेत् एहे आयाति
हा हरेः हरेः
हरेः अस्तु पुनःस्मरणार्थम् अहं केवल तदेव वदामि अस्तु यावत् तावत् पठतु सुधा पपजी पठतु यावत् तावत् अग्रिमविषये आयाति अत्र
पञ्चपञ्चाशत्
पञ्चपञ्चाशत्
नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति
तस्य उपरि एकम् अन्यवाक्यम् अस्ति तदेव पठतु एतानि
लालवर्ण रक्तवर्ण वाक्य रक्तवर्ण
रक्तवर्णे
वर्णैः सप्तमी न रक्तवर्ण में
द्वारा
अच्छा द्वारा
रक्तवर्णैः पदानि
रक्तवर्णैः पदानि रक्तवर्णैः तृतीय विभक्ति रक्तवर्णैः
पदानि इत्युक्ते वाक्यम् अस्ति पठतु पापाजी एतानि
रक्तवर्णै
रक्तवर्णै एकं वाक्यम् अस्ति तत्र पापाजी शीर्षकः अधोभागे यावत्
एतानि वाक्यानि पूर्णानि करोतु
हा इत्युक्ते करोतु कीदृश लकार अस्ति दीक्षिका भगिनी
करोतु लट् लकार प्रथम
लट् नास्ति
ओ सोरि लोट् लकार लोट् लकार करोतु लोट् लकार आज्ञा रिक्वेस्ट् लोट् लकार प्रथमपुरुष एकवचन
कर्तृपदं किम्
कर्तृपदं भवान् या भवति भवति करोतु कर्मपदं भवान् भवति वाक्यानि पूर्णानि करोतु
तत्र विशेषणविशेष्य अस्ति
विशेषणविशेष्यभाव
इत्युक्ते
एतानि विशेष्य पूर्णानि करोतु भवान् पूरा करो
पूर्णानि
करोतु इस पूर्णानि कर्मपदं विशेष्य एतानि वाक्यानि विशेषणपदम्
सुधा भगिनी प्रश्नवाचकः इत्युक्ते पूर्णानि भवान् पूर्णानि करोतु अधुना प्रश्नः पृच्छतु प्रश्नं पृच्छतु
भवान्
भगिनी
पृच्छतु
भवान्
पूर्णानि करोतु इति अहं वदामि अधुना प्रश्न उदेति प्रश्नः कः
भवान् काम करोतु कानि करोतु
भवान् कानि करोतु अहं वदामि भवान् पूर्णानि अग्रिमम् अपि एकः प्रश्नः उदेति तत् किं
भवान् केषु पूर्णानि करोतु
अत्र पूर्णानि अस्ति चेत् कानि पूर्णानि
कानि पूर्णानि
इत्युक्ते कर्मपदमेव न कानि
कानि
पूर्णानि
कानि पूर्णानि
किमर्थं कानि किं के कानि किं के कानि चेत् किस्को पूरा करना है किसको किनको हिंदी भाषायां किनको पूरा करना है कानि पूर्णानि करोमि द्वितीय इत्युक्ते कर्मपदमेव प्रश्नवाचक अपि कर्मपदम् पूर्णानि करोतु इत्युक्ते पूर्णानि तु कर्मपदमेव इति वयं जानीमः इत्युक्ते पूर्णानि कीदृशपदं पूर्णानि कर्मपदम् अस्तु अधुना प्रश्न उदेति इत्युक्ते तस्य विषयप्रश्न एव अस्ति इत्युक्ते कानि पूर्णानि भगिनी अवगतं न
अवगतं भगिनि
पूर्णानि करोमि वदतु उत्तरं वदतु
वाक्यानि पूर्णानि करोतु
कीदृशवाक्यानि भगिनि
कीदृश एतानि वाक्यानि पूर्णानि करोतु
तदेव इत्युक्ते पृथक् लघुवाक्यं किं तदनन्तरं प्रश्न उदेति तत् सः प्रश्नः कः इति वारं वारम् उक्त्वा किञ्चित् अभ्यासः भवति एव किञ्चित् स्पष्टता मनसि जायते कीदृशवाक्यानि पूर्णानि एतानि ओ अधुना तु मनसि तिष्ठति एव ओ पूर्णानि तु विशेष्यं वाक्यानि विशेषणपदम् अपि च एतानि वाक्यानि तस्य विशेषणं वाक्यानि अपि च एतानि विशेषणानि उत्तमं पठतु सुधा भगिनी उदाहरणम्
नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति
लघुवाक्यं
जलम् अस्ति
नास्ति जलमस्ति वा नास्ति वा जलमस्ति अस्तु जलमस्ति अपि समीचीनं जलम् अस्ति अन्य एकम् अन्यपदम् आयाति चेत् इत्युक्ते पदत्रयम् एव अस्ति चेत् वाक्ये के
नद्यां जलमस्ति
नद्यां जलमस्ति नद्यां जलमस्ति अधुना प्रश्न उदेति ऊहां करोतु कीदृशप्रश्नः अस्ति तत्र प्रश्नः कः इत्युक्ते अहं वदामि नद्यां जलमस्ति भवत्याः मनसि किञ्चित् प्रश्न उदेति मात्राविषये जलस्य मात्राविषये एक प्रश्न उदेति तत् किं प्रश्नः किं कः भगिनी पठ वदतु
कः नद्यां जलमस्ति
कः इत्युक्ते किं भगिनी कः इत्युक्ते
कौन्सी नदी में जल है
कौन्सी कः इति तु न
कौन्सी
इत्युक्ते हिन्दी संस्कृतभाषायां अत्र तु मात्राविषये आयाति चेत् यावत् तावत् तु मात्राविषये अस्ति अस्माकं प्रवर्तमानविषयः कः इत्युक्ते मात्रा मात्रा इत्युक्ते किं हिन्दीभाषायाम् इत्युक्ते कितना क्वाण्टिटि क्वाण्टिटि विषये अस्ति अत्र मात्रा विषये अस्ति चेत् प्रश्नः कः सुधा भगिनी
नद्यां जलं प्रश्न
अस्तु अधुना पश्यतु भगिनि पश्यतु स्क्रीन् मध्ये पश्यतु किं दत्तं
कियत्
कियत् इति प्रश्न वाचकपदमस्ति मात्राविषये यदि मात्रा इत्युक्ते यस्मिन् समये वयं गणना न शक्नुवन्तः इत्युक्ते गणना न शक्यते इत्युक्ते जलस्य विषये तु गणना एव किमपि गणना न वयं शक्यते न शक्यते चेत् कथं वदनीयं प्रश्नः कः प्रश्नः पदं किम् यत्र कुत्रापि कति न शक्यते इत्युक्ते कति जलं तु किञ्चित् क्लिष्टजातम् कति जलं तु न वदामः कथं वदनीयं कियत् जलमस्ति घटे कियत् जलमस्ति अल्पं जलमस्ति काकः पश्यति घटे अल्पं जलमस्ति इत्युक्ते प्रश्नवाचकः घटे कियत् जलमस्ति न्यूनं जलं घटे अस्ति ओ न्यूनम् अपि किमपि गणना तु नास्ति तत्र अस्तु प्रश्नः कः वदतु अधुना
नद्यां यावत् जलमस्ति नद्यां जलमस्ति नद्यां कियत् जलमस्ति
नद्यां कियत् जलमस्ति उत्तरं वदतु दीक्षिका भगिनी नद्यां कियत् जलमस्ति
नद्यां 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 किञ्चित् जलमस्ति
उत्तमं किञ्चित् जलम्
किञ्चित् जलम् अस्ति
अपि च नद्यां सरोवरस्य अपेक्षया न्यूनं जलम् अस्ति सरोवरस्य अपेक्षया इत्युक्ते किम्
इन् कम्पेरिजन् टु सरोवर्
तदेव यावत् तावत् अपि किञ्चित् तदेव कार्यं करोति रिलेटिव् टु सरोवर नद्यां जलम् अल्पमेव नद्यां कियत् जलम् अस्ति अपि च अन्यप्रश्नः उदेति सरोवरे कियत् जलम् अस्ति
अच्छा अल्पं का मतलब भी कम होता है जैसे किञ्चित्
अल्पम् अल्पं जलं जलं तु नपुंसकलिङ्गम् अल्पं जलम् अल्पं जलम् अस्ति अपि च अधिकम् अस्ति चेत् कथं वदनीयम्
अधिकं बहु बहु
बहु
नै
न अधिकम्
अधिकम्
अधिकं जलं जलस्य विषये तु अधिकम् जलम् अपि भवितुं शक्नोति इति मन्ये महत् जलं शृणोति वा पापजी महत् जलं समीचीनं वा महत् जलं किमर्थं महत् तु नपुंसकलिङ्गं विशेषणपदं जलमपि नपुंसकलिङ्गम्
जलम यू नीड मात्रा जलम के लिए मात्रा चाहिए कितनी क्वांटिटी
हाँ महत इत्युक्ते
महत क्वालिटी कहाँ है क्वांटिटी नहीं आती ना
ओ महत इज अ क्वालिटी नॉट अ क्वांटिटी
क्वांटिटेटिव नहीं है
ओ अस्तु हा ओके उत्तमम् अस्तु तस्य विषये किञ्चित् चिन्तनं करोमि अहं महत् अस्तु इत्युक्ते अल्पम् अधिकं तु समीचीनमेव तत्र हा पठतु सुधा भगिनी वाक्यं नद्याम्
आं भगिनि नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति
इत्युक्ते
नदी मे इतना पानी है जैसे सरोवर में नहीं है
नहीं है यावत तावत की दृश्य पदानी की दृश्य पदे पश्यतु अत्र की दृश्य पदम यावत भगिनी परिचय
यावत
पश्यतु
अव्ययपदमस्ति
अव्यय एव अपि च विशेषणपदम् अपि यावत् यावत् जलम् इत्युक्ते विशेषण अस्ति तत्र तस्य जलस्य विशेषणमेव यावत् जलम् अपि किन्तु वयं किं कुर्मः अधुना तु अस्माकं विषयः तु अप् टु यावत् अत्र इति वाक्यं पठतु दीक्षिका भगिनी पश्यतु अत्र
एकघण्टां यावत् न्यूनातिन्यूनं भवता प्रतीक्षा करणीया
अर्थः पश्यतु तत्र दत्तमेव
एकघण्टां यावत् न्यूनातिन्यूनं भवता प्रतीक्षा करणीय मतलब एक घंटा भवता को प्रतीक्षा करना है किसके लिए करना है ये नहीं बताया यावत
न्यूनातिन्यूनम इत्युक्ते मिनिमम
अच्छा कम से कम न्यूनातिन्यूनम
एक घंटाम यावत् एक घंटा तक कम से कम
अच्छा एक घंटा तक ओके
एक घंटाम यावत् एक घंटा तक अवगतम अग्रिमं वाक्यं पठतु भगिनी सुधा भगिनी
कार्यालयः अर्धघण्टां यावत् दूरे अस्ति
इत्युक्ते
कार्यालयं लैक् यावत् दूरे अस्ति इट्स् हाफ् एन् अवर् अवे
यावत् दूरे अस्ति जितनी दूर है जितनी अधुना यावत् इत्युक्ते जितनी अत्र किं तक् अत्र किं जितनी दूर उतना जितना उतना कियत् इत्युक्ते कितना हिन्दीभाषायां किञ्चित् भिन्न व्याकरणे एव भिन्न अस्ति किन्तु संस्कृतभाषायां गणितवत् अस्ति यावत् तावत् इत्युक्ते जितना उतना जितनी उतनी इति इत्युक्ते कार्यालयः अर्धघण्टां यावत् दूरे अस्ति आधाघण्टा जितना दूर है आधाघण्टा तक् तु नहीं बोलेंगे शायद आई डोंट नो बोलेंगे नहीं बोलेंगे ना हिंदी में
नहीं आधा घंटा जितना दूर
लगभग
जितना अस्तु अग्रिमं पठतु पापा जी इति
विद्यालय पञ्चनिमेषान् यावत् दूरम् अस्ति
इत्युक्ते
पञ्चनिमेषान्
पञ्चनिमेषान् विभक्तिरूपं किम्
पञ्चनिमेषान् अन्ते
वदतु
पञ्चनिमेषान् पञ्चनिमेषान्
बहुवचन वा हा बहुवचन आन् अस्ति रामान् इत्युक्ते कर्मपदं स्वीकरोति इत्युक्ते यावत् कर्मपदं स्वीकरोति इत्युक्ते पञ्चनिमेषान् निमेषः अस्ति एकः निमेषः निमेषौ निमेषाः निमेषं निमेषौ निमेषान् वयं किम् अवगतवन्तः इत्युक्ते किं कर्मपदं स्वीकरोति एव अस्तु अधुना अग्रिमपुस्तके अग्रिमवाक्यम् अस्ति, तत् पठतु दीक्षिका भगिनी. प्रथमवाक्यं कर्णाटकम्.
आगामिसप्ताहे मम अहं पठामि 7:30.
अस्तु, गृहपाठरूपेण किञ्चित् वाक्यत्रयं दत्तम्, एकवारं पठतु. एकवारं
आं भगिनि.
अग्रिमपुटे अग्रिमसप्ताहे वयं मिलित्वा करिष्यामः, किन्तु गृहपाठे प्रथम द्वितीय तृतीयवाक्यं तु केवलं पठतु एव. अस्तु, हा पापाजी, शान्ति पाठ.
शान्ति पाठ.
पूर्णमघ पूर्णमिदं पूर्णात् पूर्णं गच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ
सर्वं श्रीकृष्णार्पणमस्तु. हरिः ॐ श्रीगुरुभ्यो नमः. नमस्कारः सर्वेभ्यः. पापाजी प्रणाम.
आशीर्वाद.
नमस्कारः सर्वेभ्यः. नमस्कारः.
नमस्कारः भगिनी, धन्यवादः.
नमस्कारः भगिनी, धन्यवादः.